अथ ध्यानम् वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीं बीजापूरं कनककलशः हेमपद्मदधानामाद्यां शक्तिं भुक्तिं सकलजननीं विष्णुवामाङ्गसंस्थाम् शरणं त्वां प्रपन्नोऽस्मि महालक्ष्मी हरिप्रिये प्रसीद कुरु देवेशि मयि दुष्टे पराधिनी कोटिगन्धर्वलावण्यां सौन्दर्यैक स्वरूपदां सर्वमङ्गलमाङ्गल्यां श्रीरामां शरणं व्रजे।